ಏನಾಕ್ಷರಸಮಾಂನಾಯಂ ಅಧಿಗಮ್ಯ ಮಹೇಶ್ವರಾತ್ ಕೃತ್ಸ್ನಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನಿಹಿ ನಮಃ. ವಾಕ್ಯಕಾರಂ ವರರುಚಿಂ ಭಾಷ್ಯಕಾರಂ ಪತಂಜಲಿಂ ಪಾಣಿನಿಂ ಸೂತ್ರಕಾರಂ ಚ ಪ್ರಣತೋಸ್ಮಿ ನೇತ್ರಯಂ ನಮಸ್ತೇ ನಮಸ್ಕೃತ್ಯ ಉದಿತಿ ಪರಿಭಾವ್ಯ ಚ ವೈಯಾಕರಣ ಸಿದ್ಧಾಂತ ಕೌಮುದೀಯಂ ವಿರಚ್ಯತೆ. ವ್ಯಾಕರಣಶಾಸ್ತ್ರೋಪಯೋಗಿನಾಂ ಕಾಸಾಂಚನ ಸಂಜ್ಞಾನಾಂ ಕೃತೆ ಕಿಂಚಿತ್ ಪಠಾಮಹ. ಸೊ ಬೇಸಿಕ್ ಟರ್ಮಿನಾಲಜಿ ಎವ್ರಿ ಸ್ಟೂಡೆಂಟ್ ಆಫ್ ಗ್ರಾಮರ್ ಶುಡ್ ಬಿ ಫ್ಯಾಮಿಲಿಯರ್ ವಿತ್. ತತಃ ಪ್ರಾತ್ ಗತಪರ್ಯಾಯಸ್ಯ ಕಿಂಚಿದಿವ ಪುನರಾವರ್ತನ. ಗತಪರ್ಯಾಯ ಕಿಂ ಕಿಂ ಅಧೀತಂ ಯತ್ ಆದೌ ವರ್ಣವಿಭಾಗ ದೃಷ್ಟಃ ವಿಶೇಷತಃ ಸ್ವರಾಣಾಂ ವಿಭಾಗ ಆದೌ ಉಕಾಲೋ ಹ್ರಸ್ವ ದೀರ್ಘ ಪ್ಲುತಃ ಇತ್ಯನೇನ ಹ್ರಸ್ವ ದೀರ್ಘ ಪ್ಲುತಃ ಇತಿ ಸ್ವರಾಃ ತ್ರೇಧ ವಿಭಕ್ತಃ. ಪುನಃ ಉದಾತ್ತಾನುದಾತ್ತ ಸ್ವರಿತ ರೂಪೇಣ ತ್ರೇಧ ವಿಭಜನಂ ಜಾತಂ. ಉಚ್ಚೈರ್ ಉದಾತ್ತಃ ನೀಚೈರ್ ಅನುದಾತ್ತಃ ಸಮಾಹಾರ ಸ್ವರಿತಃ. 3×3 ಆಹತ್ಯ ನವ ಪ್ರಭೇದಃ ಜಾತಃ. ನವಾನಾಮಪಿ ಏತೇಷಾಂ ಪುನಃ ದ್ವೇಧಾ ವಿಭಾಗಃ ಅನುನಾಸಿಕಾಃ ನಿರನುನಾಸಿಕಾಃ ಚೇತಿ. ಮುಖನಾಸಿಕಾ ವಚನೋನುನಾಸಿಕಃ ಇತಿ ಅನುನಾಸಿಕ ಸಂಜ್ಞಾ ವಿಹಿತ. ಅನುನಾಸಿಕಾಃ ನಿರನುನಾಸಿಕಾಃ ಚೇತಿ ದ್ವೇಧಾ ಸ್ವರಃ. ಆಹತ್ಯ ಪ್ರತ್ಯೇಕಂ ಸ್ವರಸ್ಯ ಅಷ್ಟಾದಶ ಪ್ರಭೇದಃ ಜಾತಃ. ಹಸ್ವಃ ಉದಾತ್ತಃ ಹಸ್ವಃ ದೀರ್ಘಃ ಪ್ಲುತಃ ತ್ರಿಷು ಅಪಿ ಉದಾತ್ತಃ ಅನುದಾತ್ತಃ ಸ್ವರಿತಃ. ಪುನಃ ಏತೇಷು ನವಸು ಅನುನಾಸಿಕಃ ಅನನುನಾಸಿಕಃ ಚೇತಿ ಆಹತ್ಯ ಅಷ್ಟಾದಶ ವಿಭಾಗಃ ಅಷ್ಟಾದಶ ಪ್ರಭೇದಃ ಭವಂತಿ ಅಕಾರ ಇಕಾರ ಉಕಾರ ಋಕಾರಾಣಂ. ಲಕಾರಸ್ಯ ವಿಷಯೆ ತು ತಸ್ಯ ದೀರ್ಘಃ ನಾಸ್ತಿ ನಾಸ್ತಿ ಇತ್ಯಸ್ಯ ಪ್ರಯೋಗಃ ನಾಸ್ತಿ ಇತ್ಯರ್ಥಃ. ತಸ್ಮಾತ್ ಕಿಂ ಭವತಿ ಲಕಾರಸ್ಯ ವಿಷಯೆ ಷಟ್ ಪ್ರಭೇದಃ ನ ಭವಂತಿ. ದೀರ್ಘಸ್ಯ ಉದಾತ್ತಾನುದಾತ್ತ ಸ್ವರಿತ ಸಾನುನಾಸಿಕ ನಿರನುನಾಸಿಕ ಪ್ರಭೇದಃ ನ ಭವಂತಿ. ಅತಃ ಹ್ರಸ್ವಸ್ಯ ಷಟ್ ಪ್ರಭೇದಃ ತಥೈವ ಪ್ಲುತಸ್ಯ ಷಟ್ ಪ್ರಭೇದಃ ಇತಿ ಆಹತ್ಯ ದೀರ್ಘಸ್ವರಸ್ಯ ಕ್ಷಮ್ಯತಾಂ ಲಕಾರಸ್ಯ ದ್ವಾದಶ ಪ್ರಭೇದಃ ಭವಂತಿ. ಏವಮೇವ ಏಚಾಂ ಅರ್ಥಾತ್ ಏಕಾರ ಓಕಾರ ಐಕಾರ ಔಕಾರಾಣ ಹ್ರಸ್ವ ಪ್ರಭೇದ ನಾಸ್ತಿ. ಎ ಇತಿ ದೀರ್ಘಃ ಐ ಇತ್ಯಪಿ ದೀರ್ಘಃ. ಅತಃ ತೇಷಾಂ ಹ್ರಸ್ವ ಪ್ರಭೇದ ನಾಸ್ತಿ ಇತ್ಯತಃ ತೇಷಾಮಪಿ ದ್ವಾದಶೇವ ಪ್ರಭೇದಃ. ಅ ಇ ಊರ್ ಇತ್ಯೇತೇಷಾಂ ಅಷ್ಟಾದಶ ಪ್ರಭೇದಃ. ಲ ಎ ಐ ಒ ಔ ಇತ್ಯೇತೇಷಾಂ ದ್ವಾದಶ ಪ್ರಭೇದಃ ಇತಿ ಸ್ಥಿತಿಃ. ತದನಂತರಂ ವರ್ಣವಿಭಾಗಾನಂತರಂ ವರ್ಣಾನಾಂ ಉತ್ಪತ್ತಿ ಸ್ಥಾನಂ ಕುತ್ರ ಉತ್ಪಾದ್ಯಂತೆ ವರ್ಣಾಃ ಮುಖೇ ಇತ್ಯತ್ರ ಸೂತ್ರಾಣಿ ಅಧೀತಾನಿ. ಅ ಕುಹ ವಿಸರ್ಜನೀಯಾನಾಂ ಕಂಠಃ ಇ ಚು ಯ ಶಾನಾಂ ತಾಲು ಋಟು ರಷಾಣಾಂ ಮೂರ್ಧಾ ಲುತುಲಸಾನಾಂ ದಂತಾಃ ಉಪೂಪಧ್ವಾನೀಯಾನಾಂ ಓಷ್ಠೌ ನ್ಯಮಗಣನಾನಾಂ ನಾಸಿಕಾ ಚ ಏದೈತೋಹು ಕಂಠತಾಲು ಓದೌತೋಹು ಕಂಠೋಷ್ಠಂ ವಕಾರಸ್ಯ ದಂತೋಷ್ಠಂ ಜಿಹ್ವಾಮೂಲೀಯಸ್ಯ ಜಿಹ್ವಾಮೂಲಂ ನಾಸಿಕಾ ಅನುಸ್ವಾರಸ್ಯ ಇತಿ ವರ್ಣಾನಾಂ ಉತ್ಪತ್ತಿ ಸ್ಥಾನಾನಿ ಜ್ಞಾತಾನಿ. ವರ್ಣೋತ್ಪತ್ತಿ ಸ್ಥಾನಾನಿ ತತಃ ಪ್ರಯತ್ನಃ ವರ್ಣೋತ್ಪತ್ತೌ ಕೇ ಕೇ ಪ್ರಯತ್ನಃ ಭವಂತಿ. ಪ್ರಯತ್ನಃ ದ್ವೇಧಾ ಭವಂತಿ ಅಭ್ಯಂತರ ಪ್ರಯತ್ನಃ ಬಾಹ್ಯ ಪ್ರಯತ್ನಃ ಚೇತಿ. ಅಭ್ಯಂತರ ಪ್ರಯತ್ನಃ ಚತುರ್ಧಾ ಭವಂತಿ स्पृष्ट ईषत् स्पृष्ट विवृत समृत भेदात् इति उच्यते. स्पृष्ट प्रयत्नः नाम ककारादारभ्य मकारपर्यन्तं वर्गीय व्यञ्जनानां यः प्रयत्नः सः स्पृष्ट प्रयत्नः. ईषत् स्पृष्टम् अन्तःस्थानां य र ल व इत्येतेषां वर्णानाम् अभ्यन्तर प्रयत्नः ईषत् स्पृष्टः इति उच्यते. ऊष्मणां शोषसः इत्येतेषां तथैव स्वराणां अकारादारभ्य उकारपर्यन्तानां स्वराणाम् ईषद्विवृतः अभ्यन्तरप्रयत्नः. ह्रस्वस्य अवर्णस्य प्रयोगे सत् राम इति उच्यते चेत् तत्र अन्ते यः ह्रस्वः अकारः तस्य प्रयोगे एव संवृतः प्रयत्नः इति आभ्यन्तरप्रयत्नाः उक्ताः. तथैव बाह्यप्रयत्नाः एकादशः भवन्ति. विवारसंवारः श्वासः नादः घोषः अघोषः अल्पप्राणः महाप्राणः उदात्तानुदात्तस्वरिताः इति. तत्र उदात्तानुदात्तस्वरिताः स्वराणां भवन्ति पूर्वमेव अधीताः. उच्चैरुदात्तः नीचैरनुदात्तः समाहारस्वरितः इति. अल्पप्राणमहाप्राणविभागोऽपि ज्ञायते. अल्पप्राणाः वर्गाणां प्रथमतृतीयपञ्चमाः क ग न प्रथमतृतीयपञ्चमाः प्रत्येकं वर्गस्य. तथैव य र ल व इत्येते वर्णाः अल्पप्राणाः इति उच्यन्ते. एवं वर्गाणां द्वितीयचतुर्थाः ख घ एवं छ झ इत्यादयः श ष स ह इत्यादयः इत्येते च महाप्राणाः इति उच्यन्ते. पुनः विवारः श्वासः अघोषः इति एकः भागः. संवारः नादः घोषः इत्यपरः विभागः. तत्र एते त्रयः विवार श्वास अघोषाः प्रयत्नाः कर्कशव्यञ्जनानां भवन्ति. अर्थात् खर् खफ छठ थ चट थ कफ शश्वस वर्गाणां प्रथमद्वितीयौ शलः शश्वस इत्येतेषां विवारः श्वासः अघोषः इति बाह्यप्रयत्नत्रयं भवति. आल् त्री प्रयत्नास् विल् बि असोसियेटेड् वित् द सेम् सेट् आफ् लेटर्स्. ततः संवारः नादः घोषः इति त्रयः बाह्यप्रयत्नाः मृदुव्यञ्जनानां भवन्ति. अर्थात् हश्वर्णाः हयवरट् लण् यमगणनम् झभै झधश् जपगणदश् वर्गाणां द्वितीय तृतीयचतुर्थपञ्चमाः तथा यरलवः इत्येतेषां मृदुव्यञ्जनानां संवारः नादः घोषः इति बाह्यप्रयत्नत्रयं भवति. आभ्यन्तरप्रयत्नस्य उपयोगः भवति सवर्णसंज्ञायां. वर्णानां परस्परं सावर्ण्यम् अस्ति वा न वा इति चिन्तायां तुल्यास्य प्रयत्नं सवर्णम् इति उच्यते. अर्थात् वर्णोत्पत्तिस्थानं तथैव आभ्यन्तरप्रयत्नः इत्येतद्वयं यस्य वर्णस्य येन वर्णेन सह समानं भवति. अर्थात् द्वयोः वर्णयोः उत्पत्तिस्थानं तथा आभ्यन्तरप्रयत्नः यदि समानः तर्हि तौ वर्णौ परस्परं सवर्णौ इति उच्यते. स्थाने व्यत्ययः अस्ति अथवा आभ्यन्तरप्रयत्ने भिन्नत्वमस्ति चेत् परस्परं सावर्ण्यं नास्ति इति उच्यते. बाह्यप्रयत्नानां कुत्र उपयोगः इति चेत् आन्तरतम्यनिर्णये इति उच्यते. वर्णानां परस्परं सादृश्यं कदाचित् निर्णेतव्यं भवति. कदाचित् सन्धिः यदि अधीयते तत्र एकः स्थानी भवति तस्य स्थाने आदेशः विधीयते. उदाहरणार्थं तद् हितम् इत्यस्ति. तत्र हकारस्य पूर्वसवर्णः आदेशः स्यात् इति उच्यते. कः आदेशः भवेत् इत्युक्ते तत्र धकारः आदेशः भवति इति निर्णयार्थं बाह्यप्रयत्नानाम् उपयोगः भवति. एनी डौट्स् फ्रम् प्रीवियस् क्लासेस्? किमस्ति चेत् अद्यतनपाठम् आरभामहे. अत्र काश्चन उपयुक्ताः संज्ञाः उच्यन्ते. ऐ विल् टेक् यू थ्रू अ फ्यू आफ् द important samyas terminologies of grammar. It's a very small selection from what has already been covered in the Kaumudi till the Karaka Prakarana. Kaumudyam, adho samya prakarane samyaha akshyante, punaha naupada prakarane pe kashchana samyaha uktaha, tasu karaka prakarane yaha samyaha upayuktaha bhaveyuhu, tadrishaha tathaiva pramukhaha anyaha samyaha idanim vakshyante. This is a very brief coverage of the Samya Prakarana. Actually, the Samya Prakarana itself has a lot of matter in it. So, but because we have to cover Karaka Prakarana and a bit of Samasas in 6 months, it will not be possible to go into it in detail in this class. We will just have a brief introduction. If you are interested, you can listen to other classes where the Samya Prakarana has been dealt with in detail. Samya Prakaranam, Samyaha Ityukte Adau Smaryate Vriddhi Samya Vriddhi Radhaich Iti Ashtadhyayaha Prathamam Sutram. This is the first sutra of Ashtadhyayi. Tra Visheshopi Asti. Samskrite Visheshatah Shastra Granteshu Sarvada Mangalenaiva Arambhaha Bhavati. Kashchana Mangala Shlokaha Bhavatyeva Athava Mangalartham Kimapi Devata Smaranam, Guru Smaranam, ityadi kriyate. Udaharanatham, Siddhanta Kaumudyameva, Munitrayan Namaskritya, ityadi ritya, Mangalam Karoti, Natoji Dikshita. Kintu Ashtadhyayam, Kimapi Mangalam Nadrishyate. Paninihi Sakshat, Vriddhiradhech, Iti etena, Arabdhanaste Ashtadhyayam, Ashtadhyayim. Kimartham kuto mangalam nasti iti cheta atrapi mangalam asti adu vriddhi iti yat padam asti tenaiva paninihi mangalam acharitavan iti cheta alpaksharattam sutranam lakshanam kila. So being compact and precise is one of the main characteristics of Sutra Grantha, which is Ashtadhyayi. So Panini is going for an economy of words even in doing a Mangalam. He will not do a full-fledged Mangalam or a Mangala Shloka. He just says Vriddhihi, which itself is something which indicates prosperity and hence serves as a Mangala. Vriddhirada Ichchiti Prathamam Sutram Padadvayam Asti. Vriddhihi iti ekam padam, ad aich iti aparam padam. So from here on, please pay a bit of attention to how sutras are constructed. The first step to understand any sutra would be to split the words of the sutra. Padachedaha. Padachede krate tataha anuvriddhihi astiva iti drashtavyam. First once you have split the padas and you know what are the words, the next step would be to check if there are any words which are being carried over from the previous sutras. Asmin vishayetu idameva prathamam sutram ityataha anuvrittihi nasti. So once anuvrittihi jnayate chet, asmin sutre kesham kesham padanam anvayaha iti jnayate. With, first thing you will know what are the sutras, what are the words in this particular sutra. So the next step would be to know what words are coming from the previous sutras. So once you have all the words, Tesham katham parasparam anvayaha, iti drashtavyam, sutra arthaha kaha, iti diyate. Siddhanta kaumudyam bhattoji dikshitaihi diyate, anyatratu vrittikaraihi diyate. Sutrasya kaha arthaha. Kim udaharanam sutrasya? Samya sutram chet, tasya kutra upayogaha. Okay. Vidhi sutram cheti dhanim ikoyanasi ityasti cheti kim udaharanam sudhyapasyaha madhvarihi ityadihi diyate. Samya sutram cheti udaharanam iti datum nashakyate. Vriddhihi iti samya diyate. Vriddhi is a term which has been defined here. So tasya kutra upayogaha. Kutra kutra vriddhihi iti upayogam karoti paninihi iti udaharanam yatavyam. ततः शास्त्रार्थ विचारः भवति. वृद्धिः इति किमर्थम् उक्तम्, आत् इति किमर्थम् उक्तम् इत्यादि. दट् वुड् बि द अड्वान्स्ड् पार्ट्. सो बेसिकलि इनिशियलि अट् लीस्ट् वी हेव् टु नो पदानां छेदः, अनुवृत्तिः, सूत्रार्थः, उदाहरणम् इत्येतत्तु ज्ञातव्यमेव सर्वेषां सूत्राणां विषये. इदानीं वृद्धिरादैच् इति सूत्रम्. वृद्धिः आद् ऐच् इति छेदः. इदं संज्ञासूत्रम् अर्थात् सूत्रं षड्विधम् इति अधीतम् इति स्मरन्ति. संज्ञा च, परिभाषा च, विधिर्नियम एव च, अतिदेशोऽधिकारश्च, षड्विधं सूत्रमुच्यते. There are six types of sutras. Among them, this is the first type, which is a samya sutra. Samya sutram nama vyakarana shastrasya kachita samya atra nirdishyate. It defines a particular term of vyakarana. Okay? So, sutartha kaha iti cheta. Adaicha vrithi samyaha syat iti bhattodhi dikshitanam pankhi. So, this is the vritti or the sutrartha, the meaning of the sutra as defined by Bhattoji Dikshita in the Kaumudi. Adaicha vritti samyaha syat. Kaha arthaha bahu salamasti. At and aich will be called vritti. And in vyakarana, vyakarana shastre vrithihi nama at aich. अर्थात् वृद्धिः इति संज्ञा विधीयते. केषां विधीयते? आत् ऐच्. आत् नाम कः, ऐच् नाम कः इति ज्ञातव्यम्. आत् इत्युक्ते दीर्घः आकारः. किमर्थं तत्र आत् इति, अन्यः विषयः. सो यु विल् हाव् टु, दट् इस् नाट् अ पार्ट् आफ् ऐ केन् नाट् गेट् इन् टु दट् नौ. आत् इत्यनेन दीर्घः आकारः उच्यते. ऐच् इति तु प्रत्याहारः ज्ञायते एव. ऐ औच् इत्यत्र ऐकार औकारयोः ऐच् इति प्रत्याहारः. तेन वृद्धिः इति संज्ञायाः कोऽर्थः आकार ऐकार औकाराः. दीर्घः आकारः, दीर्घः ऐकारः, दीर्घः औकारः इति वृद्धिः इत्यस्य अर्थः. सो एनिवेर् इन् व्याकरण इफ् पाणिनि यूसस् द टर्म् वृद्धि, हि मीन्स् आकार ऐकार औकाराः. ओके, तर्हि वृद्धिसंज्ञायाः उपयोगः कृतः. सर्वदा संज्ञा काचित् उच्यते चेत् अन्यत्र सूत्रेषु तस्याः संज्ञायाः उपयोगः भवति. तदर्थमेव संज्ञा क्रियते. जस्ट् नेमिङ्ग् समथिङ्ग् इस् नाट् इम्पार्टेण्ट्. वेर् दट् नेम् हेस् बीन् यूस्ड् फर्दर् इस् वाट् यु टु सी. जस्ट् डिफैनिङ्ग् दट् वृद्धि मीन्स् ऐ औ would make absolutely no sense if Panini did not use the term Vriddhi anywhere. He will use term Vriddhi again and again in sutras. Everywhere it means A, I, O. So a name or a samya is just a compact way of telling things. Instead of telling Akara, Ikara, Aukara, Bhavanti, he just says Vriddhi Bhavati. So Vriddhi is a abbreviation or just a short name for A, I, O in Vyakarana. Kutra asti samyayaha upayogaha. Prasiddham udaharanam asti vritthi sandhihi. Iti yaduchyate asmabhihi vritthi rechi. Iti vidhi sutram. At echi pare vritthi syat. Avarnat echi pare vritthihi. When akara is followed by I, O, A, O, I, O, there is vritthi. Iti yaduchyate. वृद्धिः नाम आकारः ऐकारः औकारो वा भवति. उदाहरणार्थम् एक एकम् इत्यस्ति चेत् अकारादेकारे परे ऐकारः आदेशः भवति. सो इवन् दो द सूत्र नेवर् मेन्शन्स् ऐ, बिकास् हि सेस् वृद्धि, एण्ड् सिन्स् वृद्धि मीन्स् अ ऐ औ, वि रिप्लेस् अ एण्ड् ए वित् ऐ. एवमेव गङ्गा ओघः इत्यत्र गङ्गौघः इत्यत्र औकारः वृद्धित्वेन कृतः. एवं मृजर्वृद्धिः इति अन्यत् सूत्रमस्ति. मृज् धातोः वृद्धिः भवति. वृद्धिः इत्युक्ते अत्र किं भवति? आकारः कृतः. मृज् इत्यस्मात् कृत् प्रत्यये, ल्युट् प्रत्यये कृते अन इति भवति. मृज् अन इति कृते मार्ज् इति भवति. अत्र आकारः वृद्धिः. सो यु सी देर् आर् डिफरेण्ट् केसेस् वेर् आ ऐ औ सर्वेषां वृद्धिसंज्ञा अस्ति. विभिन्नेषु स्थलेषु तेषाम् उपयोगः भवति. एनी क्वेश्चन्स्? अग्रिमा संज्ञा भवति गुण संज्ञा जिसलेक वृद्धि गुण इति अपि संज्ञा अष्टाध्यायः द्वितीयं सूत्रम् वृद्धिरादैच अदेङ्गुणः इत्येव अष्टाध्यायः आरम्भः. So I think I had told you about this numbering system of Ashtadhyayi. For every sutra there is an identifying number. So unique identity for that sutra. Adau Adhyayaha. There are three numbers which are part of it. Adau Adhyayaha. One ityanena Prathama Adhyayaha. Dvitiya Samkhya Bhavati. Padasya Samkhya. So Ekam Dve Trini Chatvari. Iti four options bhavitum arhanti. प्रथमः पादः द्वितीयः पादः तृतीयः पादः चतुर्थः पादो वा ततः सूत्रस्य संख्या तस्मिन् पादे सूत्रस्य का संख्या इदं द्वितीयं सूत्रं प्रथम अष्टाध्याय्याः प्रथमाध्याये प्रथमपादे द्वितीयं सूत्रम् इति ज्ञायते. सो अध्यायाः अष्टौ अध्यायाः सन्ति. सो द फर्स्ट नंबर कैन वेरी बिटवीन 1 एंड 8. प्रत्येकम् अध्याये चत्वारः पादाः भवन्ति. So the second number can vary between 1 and 4. Tritiya sankhyatu kimapi bhavitum arhati. There are a maximum of 220 or something sutras in a pada. So the number of sutras in each pada will vary. So this number will vary depending on that. Okay. So adeng gunaha. Uttrapi padadvayam. Adu eng ityekam padam. Gunaha ityaparam padam. Itam api samnya sutram. Gunaha iti samnya vidhiyate. सूत्रार्थकः चेत् अदेन च गुणसंज्ञः स्यात्. अद् एङ् इत्येतयोः गुणः इति संज्ञा भवति. सो एव्रीवेर् वेर् पाणिनी सेस् गुण गुणः इति संज्ञा तेन अद् एङ् इत्येते गृह्यन्ते. अत् इत्यस्य कोऽर्थः ह्रस्वः अकारः. यथा आत् इत्यस्य दीर्घः अकारः इत्यर्थः अत् इत्यस्य ह्रस्वः अकारः इत्यर्थः. सो अत् हियर् मीन्स् अ ह्रस्व अकारः. एङ् इति पुनः प्रत्याहारः. ए ओङ् इति एकार ओकारयोः प्रत्याहारः. तेन गुणः इत्यस्य ह्रस्वकारः दीर्घ एकार ओकारौ इत्यर्थः. सो इन् व्याकरण एव्रीवेर् गुण मीन्स् ह्रस्वकार दीर्घकार दीर्घ एकार एण्ड् दीर्घ ओकार. रैट्. सो गुणसंज्ञायाः क्व उपयोगः चेत् पुनः गुणसन्धिः सर्वैः ज्ञायते. आद् गुणः आत् अचि गुणः अचि इति अनुवर्तते. अवर्णात् स्वरे परे गुणः आदेशः भवति. उदाहरणार्थं गण ईशः इत्यस्ति. अवर्णात् ईकारे परे गुणः अत्र एकारः गुणत्वेन भवति. गणेशः इत्यत्र एकारः गुणः. पुनः गङ्गा उदकम् इत्यस्ति. उकाराद् उकारे परे ओकारः गुणः भवति. एकारः ओकारः. महाऋषिः इत्यस्ति. अकारात् ऋकारे परे अकारः ह्रस्वकारः अत्र गुणत्वेन कृतः. महर्षिः. सो अदेन गुणः ह्रस्वकार एकार ओकाराणां गुणः इति संज्ञा भवति. सो दिस् इस् वन् इन्स्टन्स् वेर् पाणिनि हेस् यूस्ड् गुण. देर् आर् मेनी अदर् केसेस्. दिस् इस् नाट् द सिङ्गल् विदेर्गुणः इति भवति इत्यादिरीत्या बहुषु सूत्रेषु गुण इति संज्ञा उपयुज्यते. सर्वत्र गुणशब्दस्य अकार एकार ओकाराः इति अर्थः. ओके. ततः धातुः इति संज्ञा. को नाम धातुः चेत् भूवादयो धातवः इति पाणिनिना उच्यते. अष्टाध्याय्याः तृतीयपादे प्रथमाध्याये तृतीयपादे प्रथमं सूत्रं भूवादयः धातवः. तत्रापि पदद्वयमस्ति. भूवादयः इति एकं पदं. भू वा आदयः धातवः. एतेषां धातुः इति संज्ञा भवति. धातुः इति संज्ञा. क्रियावाचिनः ध्वादयः धातुसंज्ञाः स्युः. ध्वादिः इति गणः. If you remember, we talked about ganas earlier. Ganaha nama keshanchana shabdanam samuhaha. Paanini naiva diyate. There are a class of words which are defined separately. Ganapathe prathaktaya diyate. Pratyekam gane keke shabdaha bhavanti. Eva meva bhvadihi te ekaha ganaha. A class which is starting with bhu is called bhvadi. Bhvadi gane प्रायः द्विसहस्रं शब्दस्वरूपाः सन्ति, भू, एध, स्पर्ध, गाध इत्यादिरीत्या प्रायः द्विसहस्रं शब्दाः सन्ति। एते क्रियावाचिनः, यदा क्रियां वदन्ति, क्रियावाचकाः भवन्ति, तदा एतेषां धातुः इति संज्ञा भवति। सुभू इत्येकः धातुः, वा इति अपरः धातुः, वाति इति द्वितीयगणीयः धातुः। अत एव क्रियावाचिनः इत्युच्यते। वा इत्यस्य विकल्पार्थकत्वम् अस्ति, तद्वा इदं वा इत्यादिरीत्या। तदानीं धातुसंज्ञा न भवति, यदा भादिगणे पाठः अस्ति तथैव क्रियावाचकत्वम् अस्ति। यदा ते क्रियां बोधयन्ति, वाति, वायुः वाति, द विंड ब्लोस् इत्यर्थः, तदा अस्य धातुसंज्ञा भवति। क्रियावाचिनः भादयः धातुसंज्ञाः स्युः। अनेन सूत्रेण सर्वेषां भादिगणे पठितानां शब्दानां, भादि इस् नाट्, भादि इस् आफ् टु टैप्स्, भादिगणः इति धातुषु प्रथमगणस्यापि उच्यते, तथैव सर्वेषां धातूनामपि भादयः इति उच्यते। सिन्स् द एण्टायर् सेट् आल्सो स्टार्ट्स् वित् भू एण्ड् देर् आर् आल्सो डिफरेण्ट् सब्सेट्स् इन् द धातुस्, भादिः, अदादिः, जुहोत्यादिः इति। इदानीम् अत्र भादयः इत्यनेन सर्वे धातवः स्वीक्रियन्ते। सो एतेषां सर्वेषां धातुः इति संज्ञा भवति। धातुसंज्ञायाः उपयोगः बहुत्र अस्ति। धातोः इत्युच्यते, धातोः इत्येव मेनि 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 सूत्र धातुसंज्ञा। किं नाम प्रातिपदिकम् इति प्रश्नः। वाट् इस् अ प्रातिपदिकम्? जिनो धातु इस् द रूट् आफ् अ वर्ड्, क्रियापदस्य मूलरूपं भवति धातुः, नामपदस्य मूलरूपं भवति प्रातिपदिकम्। व्याकरणशास्त्रे प्रातिपदिकसंज्ञा विधानार्थं सूत्रद्वयं विद्यते, देयर आर टू सूत्रास् विच् गिव्स् प्रातिपदिकसंज्ञा इन् व्याकरणम्। प्रथमं सूत्रमस्ति अर्थवद् अधातुरप्रत्ययः प्रातिपदिकम्। चत्वारि पदानि सन्ति, अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम्, प्रातिपदिकम् इति संज्ञा। सो वाट् इस् अ प्रातिपदिक? अर्थवत्, it should have meaning, a word or a group of letters which has some meaning, which indicates some meaning. So that's why if you have a meaningless thing, you cannot call it a pratipadika. It should have some meaning. Adhatuhu, dhatuhu na bhavet, yani bhu ityasti, tasyapi kashchana arthah asti, kintu pratipadikam na bhavati. Adhatuhu istisattvat, dhatubhinna bhavet. एवम् अप्रत्ययः, प्रत्ययं प्रत्ययान्तं च वर्धयित्वा, स्वयं प्रत्ययः न भवेत्। प्रत्ययस् आर् सफिक्सस् विच् आर् यूस्ड् इन् व्याकरण, लैक् देर् आर् सफिक्सस् लैक् तृच्, यु हाव् क्त, क्तवतु, यु हाव् तव्य, तव्य, अनियर्, बहवः प्रत्ययाः सन्ति। सो प्रत्ययानां प्रातिपदिकत्वं न भवति, प्रत्ययान्तानामपि प्रातिपदिकत्वं न भवति अनेन सूत्रेण। So anything which has carries some meaning, which is not a dhatu, which is not a pratyaya, and which is not a pratyayanta, which is not ending in any pratyaya, is called pratipadika. Dhatum pratyayam pratyayantam chavarjayitva arthavat shabdaswarupam, arthavat shabdaswarupam pratipadika samyam syat, iti pratipadika samya vidhiyate. So if you notice इन् संस्कृत वाङ्मय, संस्कृतवाङ्मये अत्यन्तं न्यूनसङ्ख्यायाम् एतादृशाः शब्दाः सन्ति। देर् आर् वेरि 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 फ्यू वर्ड्स् विच् फाल् इन् टु दिस् केटगरी। दे आर् वाट् वि काल् डिट्ठदवित्थादयः, अव्युत्पन्नाः शब्दाः इति उच्यन्ते। दे आर् जस्ट् नेम्स्, सम् नेम्स् विच् डु नाट् हेव् एनि डिरैवेशन्। देर् आर् वेरि डिट्ठः इति कस्यचित् नाम, इट्स् सम् राण्डम् नेम् आफ् सम्बडि। एवं दवित्थः, the word itself does not have a meaning. Okay, etadrishaha shabdaha atyantam nyuna samkhyayam santi. Asmakam namanyapi, if you look at say Rama, somebody is called Rama, tasyapi arthah asti, ramante yoginah asmin niti ramah iti vyutpattih pradarshyate. If you take any of our traditional names, they all have some meaning. Okay, when they have some meaning, they have been derived generally from a dhatu, so they all end up being pratyayantas. Most of our names अरिदत तद्धितांतास और कृदंतास विच मीन देर एंडिंग इन कृत सफिक्सेस और तद्धिता सफिक्सेस और देर बी समासेस और देर बी समथिंग दे डू नॉट फॉल इन टू दिस कैटेगरी देर आर वेरी फ्यू वर्ड्स विच आर दिस बट देर आर अ फ्यू अव्युत्पन्ना शब्द मीन्स दोज विच डू नॉट हैव अ फर्दर डिरेवेशन इति उच्यते तादृशानां शब्दानां अनेन सूत्रेण प्रातिपदिक संज्ञा भवति किन्तु अन्येषां शब्दानां कथम् इति प्रश्नः उदाहरणार्थं रामः इत्यस्ति रामः इति कृदन्त शब्दः कृत् प्रत्ययान्तः रमन्ते योगिनः अस्मिन् इति रामः इति उच्यते व्युत्पत्तिः प्रदर्श्यते प्रत्ययान्तः अस्ति प्रत्ययान्तस्य अनेन सूत्रेण प्रातिपदिक संज्ञा नास्ति किल कथं तर्हि रामशब्दस्य प्रातिपदिक संज्ञा इति प्रश्नः एवं दाशरथिः इत्यस्ति दशरथस्य अपत्यं दाशरथिः अस्यापि प्रातिपदिक संज्ञा न भवति तद्धित प्रत्ययान्तः दिस इज अ वर्ड विच एंड्स इन तद्धित प्रत्यय सो दट ऑल्सो विल नॉट फॉल इन टू दिस कैटेगरी सो वट डू वी डू सीतापतिः इत्यस्ति तस्यापि अनेन सूत्रेण प्रातिपदिक संज्ञा न भवति कथं तर्हि इति चेत् अन्यत् सूत्रमस्ति प्रातिपदिक संज्ञा विधानार्थं तद्भवति कृत् तद्धित समासाश्च Excuse me, I'll be back in just a few seconds and I'll take your question afterwards, Shailaji. Just a couple of minutes, I'll be back. Arthavadadhatara pratyah pratyakamityatram. Arthavate tyasya arthaha nasti iti. विरोधाभासः एव भाति यथा भगिन्या पृष्टम् अर्थवद् भवेत् इति उक्तं तथैव डित्थडवित्थादीनाम् अर्थः नास्ति इत्यस्य कोऽर्थः मम दृष्ट्या इति चेत् अर्थः तु भवत्येव डित्थः इत्यस्य कः अर्थः इति चेत् सः व्यक्तिः डित्थ इस् अ नेम् आफ् अ पर्सन् सो दट् पर्सन् इट्सेल्फ् इस् द अर्थ फार् दट् वर्ड् फार् एक्साम्पल् देर् इस् आल्वेस् दिस् कन्फ्यूजन् बिट्वीन् वर्ड् एण्ड् मीनिङ्ग् उदाहरणार्थं गिरिः इत्यस्य कोऽर्थः इति चेत् अस्माभिः किम् उच्यते पर्वतः इत्यर्थः इत्युच्यते किन्तु पर्वत इस् इट् सेल्फ् अनदर् वर्ड् इट् इस् नाट् द मीनिङ्ग् वट् एवर् सिनानिम्स् यु कम् अप् वित् गिरि पर्वत शिखर वट् एवर् दे आर् आल् जस्ट् वर्ड्स् नन् आफ् देम् इस् एक्चुलि द मीनिङ्ग् आफ् द वर्ड् गिरि इस् दट् वस्तु दट् पर्टिक्युलर् थिङ्ग् विच् इस् पर्वत विच् वि केनाट् ब्रिङ्ग् एण्ड् शो For example, if somebody says bring upanetra manaya, the thing which he brings is the artha for upanetra. Whatever other words which we use to describe it, they are all just words and they are synonyms. Padasya arthasya cha bhedaha asti. Asmabhihi sarvada artha kaha ityukte anyena padena vivaranam diyate. That is the procedure. As I said, if we ask girihi athava adrihi kshmabhati iti padam asti. कोऽर्थः इति चेत् पर्वतः इत्युच्यते किन्तु पर्वतः इति अपरं पदम् इट् इस् जस्ट् अनदर् वर्ड् विच् हेस् द सेम् मीनिङ्ग् अनदर् वर्ड् विच् वुड् बि फेमिलियर् ओके दट् इस् वै वि यूस् डिफरेण्ट् वर्ड्स् टु डिस्क्रैब् द मीनिङ्ग् इस् एक्चुलि दट् पर्टिक्युलर् थिङ्ग् ओके सिमिलर्लि इफ् देर् इस् अ नेम् काल्ड् से सौम्या द मीनिङ्ग् आफ् सौम्या विच् इस् डिस्क्रैब्ड् से somebody will describe if I ask what is the meaning of सौम्या They'll say somebody who is very soft or who is very calm, etc. But they are all just words or adjectives. The actual meaning of the name Saumya is me, the vyakti. Okay. So similarly, Dittha ityasya arthaha asti. Kaha arthaha sa vyaktihi. That person who is named Dittha is the meaning of Dittha. Dittham anaya. Bring Dittha ityukte sa vyaktihi aniyate. So arthaha asti. Kintu यथा रामः इत्यस्य अन्येन पदेन विवरणं दीयते व्युत्पत्तिः दट् इस् वै द प्रीवियस् स्लैड् सेड् अव्युत्पन्नानि शब्दानि वि काल् इट् एस् व्युत्पत्ति व्युत्पत्ति इस् वेर् वि ट्रै टु शो द डिरैवेशन् आफ् अ वर्ड् ओके यथा मया उक्तं गौरी इत्युक्ते किम् उच्यते अथवा पार्वती इत्युक्ते किम् उच्यते पर्वतस्य अपत्यम् शी इस् काल्ड् पार्वती बिकास् शी इस् द डाटर् आफ् अ पर्वत दट् इस् वाट् वि काल् व्युत्पत्ति व्युत्पत्ति इस् अ कम्प्लीट्लि ग्रामेटिकल् कान्सेप्ट् Any word need not have a vyutpatti. Okay? All words will have a meaning depending on what they intend to convey. Dittaha ityasyapi arthaha bhavati, parvati ityasyapi arthaha asti. Kintu, dittaha ityasya vyutpatti hi pradarshayitum na shakyate. Ditta is not a word which is derived from other words according to the rules of this grammar. Samskruta vyakarane anyena shabdena asya vyutpatti hi pradarshayitum na shakyate. Parvati ityatatu, parvatasya apatyam, parvata shabdatu pratyaya krute. Parvati iti shabdaha nishpannaha. Okay, so vyutpannani shabdani, if the word is derived from some other word, if it is ending in a suffix, pratyayantam bhavati chet, tada anena sutrena pratipatika samyana bhavati, kintu asmakam deshe yani namani prayuchyande, prayena krit pratyayantani athava tadhita pratyayantani bhavanti. So it is in that sense that I meant a meaning. Okay, so arthastu sarvesham bhavatyeva ditta padasya arthaha bhavati sa vyaktihi. Okay, was that clear? The confusion between pada and artha is something which is quite natural and which is dealt with in vyakaran. Okay. Idanim parvati iti shabdasya katham pratipadikatvam krutadhita samasascha iti dvitiyam sutram asti. Krittadhira samasaha cha iti padadvayam arthavaladhatara pratyah pratipadikam iti purva sutrat pratipadikam iti anuvartate. So you see, if you just take krittadhira samasascha, korthaha iti vaktum na shakyate, we will not be able to say what is the meaning. What krittadhira samasaha kim iti prashnaha udeti. Atayeva pratipadikam iti anuvrittihi sikriyate purva sutrat. So pratipadikam is being carried over from the previous sutra. Tadakim bhavati krittadhira samasaha cha pratipadikam. Krittadhitantau samasascha pratipadika samyaha syuhu. So from this sutra, kridantanam, tadhitantanam, tathaiva samasanam, samastapadanam, pratipadikam iti samya diyate. Tena ramaha ityasya rama iti kridantaha ramu dhatohu nishpannaha shabdaha. Hope you know the basic difference between kridantas and tadhitas. Kridantas are derived from dhatus, whereas tadhitantas are derived from other pratipadikas. For example, dasharathi is derived from dasharatha, which itself is a pratipadika. Dasharathasya apatyam dasharathihi. So it is a tadhitanta. Whereas rama is derived from ramante, ramudhatohu nishpannaha kridantaha, sitapati, samasaha. So all these types of words will get pratipadika samya by krittadhita samasascha. So other than these, if there is a word which carries meaning and which is not dhatu, pratyaya or pratyayanta, tasya purva sutrena pratipadikam iti samya bhavati. Pratipadika vidhayake sutre dve. Tataha vibhaktihi. So since we are dealing with karakas, karaka will have all this. You have pratipadika, you'll have vibhakti, you'll have everything. Vibhaktihi nama ka iti prashna. Vibhaktihi ityasya smakam putra asti. Prathama vibhakti, dvitiya vibhakti, ityadi ritya parichaya asti. So vastataha vibhaktihi nama ka iti seta. Atra asti vibhaktischa. Tingastrini trini prathama madhyamottamaha iti sutrat. Tingaha iti anuvartate. Supaha ityeva ekam sutram asti, supaha iti anuvartate. Suptingau vibhakti samyau staha iti sutrasya arthaha. Sup and ting are called vibhakti. Okay? Sup, ting ityetayoho vibhaktihi iti samya asti. Sup namakim, sup iti pratyaharaha. Su aujas, am auchas, tabhyamhis, nyebhyamhis, nasibhyamhis, nasosam, yos, sup iti. Su ityataha su. Arabhya, anteyaha pakaraha, ahatya sup iti pratyaharaha, suaujas ityanayaha, ekavimshatihi pratyaha. There are 21 suffixes which are added to pratipadikas. Ramaha, ramo, ramaha, ityadi rupasiddhyartham, rama iti pratipadikas, ete ekavimshatihi pratyaha yojyante, te sup iti ucchyante. So all those pratyas are actually called vibhaktis. Okay. So, among those vibhaktis, each of them is a vibhakti. The first three are called prathama, second three are called dvitiya by this. Tatra, su aujas ityadinam trikanam, prathamadayaha saptamyantaha, pracham samyaha. So, actually Panini has defined only vibhakti. Vibhakti samya Panini na utta. Prathama vibhakti hi, dvitiya vibhakti hi, iti Panini na noktaha. Panini has not defined prathama vibhakti, dvitiya vibhakti, etc. Su aujas ityadinam trikanam. There are sets of three. Ekavimshatihi pratyayaha santi. Tatra trayam trayam. Su aujas iti the first three. They are divided into seven sets of three. Etesham prathama trikasya prathama vibhaktihi iti nama. Evam dvitiya trikasya dvitiya vibhaktihi iti nama. Evam su aujas ityadinam trikanam. Prathamadayaha saptamyantaha. Prathama, dvitiya, tritiya, chaturthi, panchami, shashti, saptami, iti saptamyantaha. Pracham samyaha. Pracham nama prachina vayyakaranana. Paninehe prakkalikaihi vayyakaranaihi api te shabdaha upayuktaha. Te eva paniniya vyakarane api angikrataha. So even though Panini himself has not defined them separately, they are used based on usage which existed even before Panini. Tabhihi, tabhihi samyabhihi, prathama vibhaktihi, dvitiya vibhaktihi, ityadhihi, iha api vyavaharaha. So we, even in Paniniya Vyakarana, we use those terms. So vibhaktihi sup, sup iti jnatam, ting ityate kim, punaha ting ityapi prasyaha, siddhadhi, siddhadha, mibvasmas, ta atamsha, thasathamdham, idvahi mahin. Ti ityataha arabhya, ante mahin ityatra, ngakara paryantam pratyaharaha, ting ityate, ashtadasha pratyaha santi, dhatubhyaha vihitaha. So they are all suffixes which are added to dhatus. Pathati, pathataha, pathanti. Siddhaschi ityate pratyaha. So now, actually these are also called vibhakti. According to Panini, supaha tingascha, supamapi vibhaktihi iti nama asti. Tipam tingam api vibhaktihi iti nama asti. Tatra tibadinam trikanam tingastrini trini prathama madhyama uttamaha iti sutrena prathama madhyama uttama purusha samyaha paninina vihitaha. So in sup Panini does not deal with further divisions. So the division into prathama, dvitiya, etc. have been taken from earlier vyakarana. In ting Panini breaks 3-3-3 into prathama, madhyama, uttama. Tingaha trini trini. In ting, 3-3. That is, each set of 3 is called prathama, madhyama and uttama. So, taha samyaha paninina vihitaha. Kintu, purushaha iti yaduchyate. Prathama purushaha, madhyama purushaha, uttama purushaha iti. Tattu punaha pracham vyavaharaha. So, the differentiation of sup pratyayas into vibhaktis and thing into purushas were all before Panini. Okay, and we are continuing with them. We call thing as prathama purusha, madhyama purusha, uttama purusha. Supam to prathama vibhaktihi, dvitiya vibhaktihi iti vyavaharaha, pracham vyavaharaha. According to Panini, both of them, everything is vibhakti. In thing it would be called prathama vibhakti, madhyama vibhakti, uttama vibhakti. But vyavahara tatha nasti. Prathama purushaha itteva prayogaha asmabhihi adriyate. Into Panini mate, whenever Panini uses the term vibhakti, he intends both supratyayas and ting pratyayas. Supaha tingascha vibhakti samyaha syuhu. Ityuchyate. Kintu tathaiva prathama dvitiya iti punaha taraka prakarane yada vibhaktihi vidhiyate, tada subvibhaktihi eva vibhakti padena rudhim prapta. Okay, it is the vibhaktis of sup which are called vibhaktis in rudhi. Panini also accepts this. He says, Pratiparikarthalinga parimana vachana matre prathama. Asa prathama vibhaktihi iti Panini naapi upayujyate. But he has not defined them separately. Then vachana. Vibhaktihi jnataha. Vachanaha. Vachanam namakim iti chayata. So there are three vachanas, as you all know. Ekavachanam, dvivachanam, bahuvachanam. They are very self-explanatory terms, but still Panini defines them. Dvyekayoho, dvivachana, ekavachane. परद्वयम् अस्ति द्वि एकयोः द्व्येकयोः द्विवचन एकवचने द्वित्व एकत्वयोः एते स्तः इति सूत्रार्थः द्वित्वे द्योत्ये whenever the duality or the dual character of something is to be indicated we use dvivachana whenever the singular character ekatvam is the property of being one whenever the oneness of something is to be indicated tada ekavachanasya prayogah dvitra ekatvayoho ete nama dvivachana ekavachane stah evam oh sorry there should be one more slide which seems to be missing here bahushu bahuvachanam tejate bahutve etat syat whenever the plurality the manyness of something many natured quality of something is to be indicated we use bahuvachana okay very self explanatory terms panini defines ekavachana dvivachana bahuvachana okay so that is I think maybe we should stop here and there are a few more samyas tomorrow we'll finish them and start with karakas any questions prashna haste prachata mujhe टेस्ट इति दत्तमस्ति इफ यू रजिस्टर्ड इन आवर वेबसाइट व्हिच इज आई डोंट नो इफ यू रजिस्टर्ड आगच्छति चेत् इफ यू रजिस्टर योर सेल्फ तत्रैव पाठानां नोट्स तथा मुद्रणानि लभ्यन्ते सो देर आर टेस्ट फॉर ईच चैप्टर आई मीन फॉर द फर्स्ट चैप्टर व्हिच इज व्याकरण परंपरायाः कश्चन परीक्षाः दत्ताः तथैव द्वितीयपाठे माहेश्वरसूत्राणां विषये प्रत्याहारविषये किञ्चित् असैन्मेण्ट् दत्तम् सो यु केन् फैण्ड् अण्ड् अटेम्प्ट् दोस् दे विल् बि करेक्टेड् ईदर् आटोमेटिकलि आर् ऐ लुक् इन् टु देम् वन्स् दे आर् सब्मिटेड् तर्हि श्वः प्रातः सो if we start by I don't know if it's a problem if we, the class goes beyond 7 if we start exactly at 6 we can end up by 7 adya prarambha eva vilambatah jatah ittatah kinchidiva exceeda bhavat sham yena akshara samam nayam adhikam mahesharat katsanam vyakaranam proktam tasmay paninaye namah vakyakaram vara rucim bhashyakaram patanjalim paninim sutrakaram cha pranatosmi munitrayam मुनित्रयम् नमस्कृत्य चतुर्थीः परिभाष्य च वैयाकरणसिद्धान्तकौमुदीयम् विरच्यते